निषिद्धैरप्येभिः ललितमकरन्दो मधुकरैः करैरिन्दोरन्तश्चुरितैव सम्भिन्नमुकुलः विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम्। अश्वत्थामा सक्रोधम्। अरे रे रथकारकुलकलङ्क, अरे राधागर्भभारभूत आयुध अनभिज्ञ, तातमपि अधिक्षिपसि। अश्वत्थामा क्रोधसहितं वदति, अरे रे रथकारकुलकलङ्क। रथकारः इत्युक्ते सारथिः इति अर्थः। सारथीनां यः कुलः अस्ति तस्मिन् कुले एषः कलङ्कः अस्ति इति रथकारकलकुलङ्क इति सम्बोधयति। अरे राधागर्भभारभूत, एतत् सम्बोधनं पूर्वमपि दृष्टमासीत्। राधायाः गर्भस्य भारभूतः इति अधिक्षिपति। आयुध अनभिज्ञ, आयुधम् आयुधविषये किमपि न जानाति। अभिज्ञः नाम यः सम्यक् जानाति सः अभिज्ञः, अनभिज्ञः यः न जानाति। आयुध अनभिज्ञः आयुधविषये किमपि न जानाति। किं जानाति भवान्? किमपि न जानाति। तातमपि अधिक्षिपसि, मम पितरमपि अधिक्षिपसि। किं त्वं मम तातस्य अपमानं करोति, मम तातं तिरस्करोति किम् इति। अथवा स भीरुः शूरो वा प्रथितभुजसारः त्रिभुवने कृतं यत्तेन आजौ प्रतिदिनम् इयं वेत्ति वसुधा परित्यक्तं शस्त्रं कथमिति सः सत्यव्रतधरः पृथासूनुः साक्षी त्वमसि रणभीरो त्वनु तदा। सभीरुः शूरो वा प्रथितभुजसारः त्रिभुवने इति भवति। अत्र पुस्तके अवग्रहः एकः दृश्यते, तस्य आवश्यकता न स्यात्। प्रथितभुजसारः इति एकं पदम् अस्तु। अश्वत्थामा एवं वदति, सः द्रोणाचार्यः, मम पिता द्रोणाचार्यः, सः भीरुः शूरो वा वसुधा वेति। सः शूरः वा भवतु, भीरुः भीतः वा भवतु, सः कीदृशः आसीत् इति एषा वसुधा वेत्ति, एषा भूमिः जानाति, एषा भूमि जानाति। एवमेव परित्यक्तं शस्त्रं कथं, कथं सः शस्त्रं परित्यक्तवान्, केन कारणेन सः शस्त्रं परित्यक्तवान् इति विषये कृतासूनुः साक्षी अस्ति। कृतासूनुः युधिष्ठिरः, कीदृशः युधिष्ठिरः? सत्यव्रतधरः युधिष्ठिरः। सत्यमेव व्रतरूपेण यः धृतवान् आसीत् सः सत्यव्रतधरः कृतासूनुः साक्षी अस्ति। मम पिता कथं शस्त्रं त्यक्तवान्, कस्याम् अवस्थायां सः शस्त्रं त्यक्तवान् इति विषये सः साक्षी अस्ति युधिष्ठिरः। भवान् तस्मिन् समये कुत्र गतवान्, क्व नु तदा, भवान् कुत्र आसीत् तस्मिन् समये इति पृच्छति। मम पितुः पिता शूरः वा वीरः वा भवतु, तत्र साक्षीद्वयम् अस्ति। युधिष्ठिरः साक्षी अस्ति, एषा वसुधा अपि साक्षी अस्ति, किन्तु भवान् कुत्र आसीत् तस्मिन् समये इति पृच्छति अश्वत्थामा। भवान् युद्धक्षेत्रात् पलायनं कृत्वा कातरत्वं प्रदर्श्य धावित्वा आगतवान् अस्ति, भवान् किमर्थं स्ववीरत्वं न दर्शितवान् तत्र इति पृच्छति अश्वत्थामा। सः द्रोणाचार्यः भीरुः शूरो वा, भीरुः कातरः वा भवतु, शूरः वा भवतु, त्रिभुवने त्रिषु भुवनेषु अपि प्रथितभुजसारः अस्ति। प्रसिद्धः, प्रथितः नाम प्रसिद्धः, भुजसारः भागुशाली, बाहुशाली अस्ति। भुजः नाम बाहुः इति अस्ति, अतः महान् प्रसिद्धः बाहुशाली अस्ति सः। भीरुः वा शूरः वा भवतु, किन्तु त्रिभुवने अपि सः महान् प्रसिद्धः अस्ति। तेन आजौ, तेन द्रोणाचार्येण आजौ युद्धे यत् कृतं, यत्यत् कार्यं कृतं, न केवलं शत्रूणां मारणं, शत्रूणां हननं कृतम्, अपि च व्यूहरचना, तस्य सैनापत्यं, सेनापति भूत्वा किं किं कृतवान्, प्रतिदिनं सः किं किं कुर्वन् आसीत् इति एषा इयं वसुधा वेति, एषा भूमिः जानाति। शस्त्रं कथं परित्यक्तं, शस्त्रं किमर्थम् इति अर्थः, किमर्थं परित्यक्तं, कस्याम् अवस्थायां परित्यक्तं, किमर्थं परित्यक्तम् इति सत्यव्रतधरः पृथासूनुः साक्षी, पृथासूनुः पृथायाः पुत्रः, सूनुः पुत्रः युधिष्ठिरः, सत्य कीदृशः पृथासूनुः, सत्यव्रतधरः, सत्यम् एव तस्य व्रतम् अस्ति, एवं सत्यम् इति व्रतं यः धरति सः सत्यव्रतधरः पृथासूनुः साक्षी। सः किमर्थं शस्त्रं त्यक्तवान्, विसृष्टवान् इति, स एव साक्षी। त्वमसि रणभीरो, हे रणभीरो, त्वं क्व तदा, त्वं क्व असि तदा, तस्मिन् समये भवान् कुत्र आसीत्, कुत्र अस्ति इति रणभीरो इति सम्बोधयति। तदा तस्मिन् समये यदा सः आयुधं विसृज्य तपसि उपविष्टवान् आसीत्, तस्मिन् समये हे रणभीरो, युद्धात् भीतः अस्ति त्वम् इति रणभीरो इति सम्बोधयति। रणभीरो, क्वनु तदा त्वं क्वनु असि, तत् तदा भवान् कुत्र आसीत् इति अर्थः। व्याख्यां पठामः। सः असौ द्रोणः भीरुः कातरः वा शूरः वीरः त्रिभुवने त्रैलोक्ये प्रथितभुजसारः, प्रथितः प्रसिद्धः, भुजसारः बाहुबलं यस्य सः, तेन अमुना आजौ रणे प्रतिदिनं प्रतिवासरं यत् यत् पौरुषं कृतं विहितं, इयं एषा वसुधा पृथिवी, इयम् एषा वसुधा पृथिवी वेत्ति जानाति। शस्त्रम् आयुधं कथं परित्यक्तं, कथं विसृष्टम् इति एतदर्थं सः असौ सत्यव्रतधरः आयुधव्रती पृथासूनुः युधिष्ठिरः साक्षी, साक्ष्यभूतः अस्ति। हे रणभीरो, अयि युद्धकातर, तदा शस्त्रत्यागकाले त्वं कर्णः क्वनु असि, कुत्र आसीः। कर्णः विहस्य, एवं भीरुः अहं, त्वं पुनः विक्रमैकरसः स्वपितरम् अनुस्मृत्य न जाने किं करिष्यसि इति, महान् मे संशयो जातः। कर्णः विहस्य वदति, एवं भीरुः अहम्, अहं भीरुः अस्मि, भवामि, चिन्ता नास्ति, अहं भीरुः एव स्याम्, किन्तु त्वं कीदृशः अस्ति, विक्रमैकरसः त्वं, विक्रमः एव एकः रसः यस्य सः विक्रमैकरसः, पराक्रमशाली भवान्, तव पितरं स्मृत्वा, पितुः स्मरणेन किं कृतवान्, किं करिष्यसि इति महान् मम संशयः अस्ति इति अत्र कर्णः सपरिहासम् अश्वत्थामानं वदति। अत्र परिहास उक्तिः अस्ति इति अवगन्तव्या। एवं पठामश्चेत् कर्णस्य वचने विद्यमानः भावः न ज्ञायते, अतः एतत् किञ्चित् परिहाससहितम् अस्ति इति अवगत्य पठामश्चेत् सम्यक् भवति। विक्रमैकरसः त्वं, भवान् तु महान् पराक्रमशाली इति वदति किल, तादृशः त्वं स्वपितरम् अनुस्मृत्य, तव पितरं द्रोणाचार्यं स्मृत्वा स्मृत्वा न जाने किं करिष्यसि इति, अहं न जानामि भवान् किं कर्तुं शक्नोति इति, नाम कीदृशं शत्रु क्षत्रियविनाशनं कर्तुं, क्षत्रियाणां नाशनं कर्तुं शक्नोति इति न जाने, महान् मे संशयः जातः। मम संशयः महान् अस्ति तस्मिन् विषये, भवान् किं वा कर्तुं शक्नोति, किं वा कर्तुं समर्थः अस्ति भवान् इति। अग्रे, अपि च रे मूढ, यदि शस्त्रम् उञ्चितम् उज्झितम् अशस्त्रपाणयः न निवारयन्ति किम् अरीन् उदायुधान्, यत् अनेन मौलिदलने अपि उदासितं सुचिरं स्त्रिया इव नृपचक्रसन्निधौ। कर्णः पृच्छति, यः युद्धक्षेत्रे शस्त्रं त्यजति त्यजति सः अन्येन केनापि प्रकारेण शत्रून् निवारयितुं न शक्नोति किम्? अशस्त्रपाणयः उदायुधान् अरीन्, ஆயுத சகிதான் சத்ருன்னு ந நிவாரயந்தி கிம், நிவாரயித்தும் ந சக்னுவந்தி கிம், கேனாபி பிரகாரேண பவதா பிதா திருஷ்டத்யும்னம் நிவாரயித்தும் சக்னுயாத், கிந்து சஹ ஸ்திரியா இவ சர்வேஷாம் ராஜ்யாம் சமக்ஷம் சஹ ஸ்திரீவத் ஆச்சரித்தவான் அஸ்தி துரோணாச்சாரியா இதி புனஹ பரிஹசதி கர்ணஹ. ததபி மௌலிதலனே அபி உதாசிதம், மௌலிதலனம் சிரசி ஸ்பர்ஷணம் கிருத்தவான் அஸ்தி திருஷ்ட சத்ருஹ திருஷ்டத்யும்னஹ, ததபி சஹ ஸ்திரியா இவ ஸ்திரீ இவ ஆச்சரித்தவான் தவ பிதா, கிமபி உதாசீனம் ஆச்சரித்தவான் அஸ்தி. எதத் சிரசி ஸ்பர்ஷஹ து மகான் அபமானகர விஷயஹ இதி உச்யதே. யதி சஸ்திரம் உஜ்ஜிதம் தேன கிம், யதி சஸ்திரம் ஆயுதம் உஜ்ஜிதம் தியக்தம் தேன கிம், சோ வாட் இதி அர்த்தம், சோ வாட் சஸ்திரம் தியஜதி சேத் அந்ய கிமபி மார்கஹ நாஸ்தி வா, தேன கிம், அசஸ்திரபானயஹ யேஷாம் ஹஸ்தே சஸ்திராணி ந சந்தி சஹ தே அசஸ்திரபானயஹ சந்தி, பானௌ சஸ்திரம் நாஸ்தி அசஸ்திரபானிஹி, அசஸ்திரபானயஹ உதாயுதான உத்யதம் ஆயுதம் யைஹி தான் உதாயுதான் நாம ரெடி டு அட்டாக், யஹ யுத்தம் கர்த்தும் உத்யுக்தஹ அஸ்தி, யுத்தம் கர்த்தும் சித்தஹ அஸ்தி சஹ உதாயுதான் பவ உதா சஹ உதாயுதஹ பவதி, ஏவம் உதாயுதான் நாம யுத்தார்த்தம் யே சித்தாஹ சந்தி தான் நிவாரயித்தும் தான் அரீன் உதாயுதான் அரீன் ந நிவாரயந்தி கிம் அசஸ்திரபானயஹ, உதாயுதான் ந நிவாரயந்தி கிம் நிவாரயித்தும் ந சக்னுவந்தி கிம் கேனாபி பிரகாரேண, சஸ்திரம் ஹஸ்தே நாஸ்தி சேதபி சஸ்திரம் தியக்தம் சேதபி கேனாபி அன்ய பிரகாரேண தான் சத்ருனி நிவாரயித்தும் சக்னுவந்தி ஏவ, கிந்து தவ பிதா கிம் கிருத்தவான் அனேன துரோணாச்சாரியேன நிருப சக்கர சந்நிதௌ சர்வேஷாம் ராஜ்யாம் சந்நிதௌ சமக்ஷம் பிரத்யக்ஷம் மௌலிதலனே அபி, மௌலிதலனம் தலனம் இத்துக்தே பீடனம் இது அர்த்தம், சிரஃப் பீடனம் சிரஃப் பீடன சமயே தஸ்ய சிரஹா யதா பீடிதவான் ஆசீத் துஷ்டத்யும்னஹா தஸ்மின் சமயே அபி ஸ்திரியா இவ சுசிரம் உதாசிதம், ஸ்திரீவத் சஹ ஆச்சரிய சுசிரம் சிரகாலம் சஹ உதாசிதவான் தஸ்ய உதாசீனம் கிருத்தவான் தஸ்ய சிரோமர்தனம் சிரஃப் பீடனஸ்ய உதாசீனம் கிருத்தவான் தவ பிதா ஸ்திரீவத் ஆச்சரித்தவான். அத்த ஸ்லோகஸ்ய தாத்பரியம் கிம் இத்துக்தே அஸ்வத்தாமா புனஹ புனஹ மம பிதா சஸ்திரம் தியக்தவான் தஸ்மாத் சத்ரவஹ தம் மாரிதவந்தஹ இதி புனஹ புனஹ வததி, சஸ்திரம் தியக்த்வாபி சஹ ஆத்மானம் ரக்ஷிதும் சமர்த்தஹ ஸ்யாத் கிந்து ததா ந க்ருதவான் இதி கர்ணஹ வததி, சஸ்திரத்யாக அனந்தரமபி சஹ சத்ரூணாம் பீடனம் சஹ சோடவான் கிமர்த்தம் இதி சஹ பிருச்சதி, சஹ கிம கேனாபி பிரகாரேண சத்ருனி நிவாரயித்தும் அபி பிரயத்னம் ந க்ருதவான் துரோணாச்சாரியஹ இதி கர்ணஸ்ய அதிக்ஷேபஹ. தத் வஸ்துதஹ மகாபாரதே ஏவம் அஸ்தி சஹ சஸ்திரம் தியக்த்வா யோக நித்ராம் கதஹ துரோணாச்சாரியஹ ததா பிராணான் அபி தியக்தவான் இதி மகாபாரத கதா. அத்த நாடகே கிஞ்சித் பின்னம் அஸ்தி, ஏவமேவ வயம் அபி ஸ்வீகுர்மஹ, நா யதா அஸ்தி புஸ்தகே ததா ஸ்வீகுர்மஹ. வியாக்கியாம் பதாமஹ, யதி சேத் சஸ்திரம் ஆயுதம் உஜ்ஜிதம் பரித்யக்தம் தேன கிம் ததஹ கிம் உதாயுதான் உத்யத சஸ்திரான் அசஸ்திரபானயஹ ந சந்தி சஸ்திராணி பாணிஷு யேஷாம் தே தியக்த சஸ்திராஹ அரீன் சத்ரூன் ந நிவாரயந்தி கிம் வாரயந்தி ஏவ அபி ச நிவாரயந்தி ஏவ, அசஸ்திரபானயஹ நிச்சயேன உதாயுதான் சத்ரூன் நிவாரயந்தி ஏவ, யத் நிருபசக்கர சந்நிதௌ ராஜ சமூக சமீபே மௌலிதலனே அபி சிரோமர்தனே அபி ஸ்திரியாஹ இவ நாரியாஹ இவ சுசிரம் பஹுகாலம் உதாசிதம் உதாசீனம் உதாசீனதாம் அகரோத். அக்கிர நாரியா இவ ஸ்திரியா இவ இது பவேத் ஸ்திரியாக இவ ந ஸ்திரியா இவ அத நாரியா இவ. அக்ரே அஸ்வத்தாமா ச க்ரோதம் ச கம்பம் ச துராத்மன் ராஜ வல்லப பிரகல்ப சூத அபசத அசம்பந்த பிரலாயின். விவித பிரகாரேண சம்போதயதி கர்ணம் துராத்மன் நாம ஹே துஷ்ட இது ராஜ வல்லப பிரகல்ப இத்தே ராஜ்ஞா வல்லபா இது காரணாத் பிரகல்பா அசித்வம் இது வததி. ராஜ்ஞா நாம அத்ர துரியோதனஸ்ய பிரியா அஸ்தி கர்ணா இது காரணேன சஹ பஹு கர்விதா அஸ்தி இது நிந்ததி அஸ்வத்தாமா. துரியோதனஸ்ய சம்பந்தேன துரியோதனஸ்ய பிரியா ராஜவல்லபா இது காரணாத் பிரகல்பா இது காரணாத் சஹ கர்விதா அஸ்தி. சூத அபசத நாம சாரதி குலே அதமஹ அஸ்தி அசம்பத்த பிரலாபின் சம்பந்தம் வினா பிரலாபம் கரோதி கிம் கிமபி வததி இதி அசம்பத்த பிரலாபின் இதி ஸ்லோகம் படாமஹ. கதமபி ந நிஷித்தஹ துக்கிதா பீருணாவ த்ரிபத தனய பாணிஹி தேன பித்ரா மம அத்ய தவ புஜ பல தர்ப தர்பாத்மாயமானஸ்ய வாமஹா சிரசி சரணஹா ஏஷஹா நியஸ்யதே வாரய யோனம். துக்கினா இது பவேத் துக்கிதா ந கதமபி ந நிஷித்தோ துக்கினா பீருணா. அஸ்வத்தாமா கிம் வததி இத்துக்தே மம துரோணாச்சாரியேன துஷ்டத்யும்னஸ்ய ஹஸ்தஹா ந நிஷித்தஹா தத் பவது சிந்தா நாஸ்தி. இதானீம் அஹம் தவ புஜபல தர்ப ஆத்மாயமானஸ்ய தவ சிரசி கீதிருஷ்ய தவ சிரசி இத்துக்கே தவ கர்வரா கர்வ ஆதிக்கேன வித்யமானஸ்ய தவ சிரசி இதானி மம பாதா நியஸ்யதே அஹம் மம பாதம் நியஸ்யாமி சக்கியதே சேத் வாரய இது வததி. தேன மம பித்ரா தேன மம பித்ரா துரோணாச்சாரியேன கீதிருஷேன துரோணாச்சாரியேன துக்கினா பீருணா வா எஸ்ய துக்கம் அஸ்தி சஹ துக்கி துக்கினா பீருணா காதரேன மம பித்ரா கதமபி த்ருபத தனய பாணிஹி ந நிஷித்தஹ கதமபி கேனாபி பிரகாரேண வா கேனாபி காரணேன வா மம பித்ரா மம பிதா த்ருபத தனயஸ்ய பாணிம் ந நிஷித்தவான். த்ருபத தனையாக நாம திருஷ்டத்யும்னஸ்ய ஹஸ்தா ந நிஷித்தா திருஷ்டத்யும்னஸ்ய ஹஸ்தம் ந நிஷித்தவான் பவது கிந்து இதானீம் அத்ய கிம் கிரியதே மயா அஹம் து இதானீம் கிம் கரோமி இத்யுக்தே புஜ பல தர்ப ஆத்மாயமானஸ்ய தவ சிரசி புஜ பல தவ பாகு பலேன பல காரணாத் தர்பா அஸ்தி தவ அஹங்காரா மதஹா கர்வஹா அஸ்தி கர்விதஹா அஸ்தி அஸ்தி பவான் தத்ர ஆத்மாயமானஸ்ய இத்யுக்தே ஆத்மாயஹ ஆத்மா இத்யுக்தே டு இன்ஃப்ளேட் இதி அர்த்தஹ டு ஸ்வெல் டு இன்ஃப்ளேட் அத்யதிக கர்வம் கர்வஸ்ய ஆத்மா த்ருஷ்யதே தஸ்ய தஹ ஆத்மாயமானஸ்ய இத்யுக்தே அஹங்கார அதவா கர்வ ஆதி கியம் யஸ்ய அஸ்தி தாதிருஷ்யஸ்ய கர்வ ஆதிக்கியேன வித்யமானஸ்ய தவ சிரசி. கிமர்த்தம் கர்வம் இத்துக்தே புஜபலாத் தவ புஜபலாத் யஹ கர்வஹ அஸ்தி தஸ்ய ஆதிக்கியேன வர்த்ததே பவான் தாதிருஷ்யஸ்ய தவ சிரசி மூர்த்னி ஏஷஹ வாமசரணஹ மம வாமபாதஹ இதானீம் நியஸ்யதே இதானீம் ஸ்தாப்யதே இதானீம் ஸ்பிருஷ்யதே வாமபாதேன தவ சிரஹ ஸ்பிருஷ்யதே சக்கியதே சேத் வாரய வாரய ஏனாம் பவான் நிவாரயது பஷ்யாமி அஹம் இதி. மம பிதா திருஷ்டத்யும்னம் ந நிஷித்தவான் திருஷ்டத்யும்னஸ்ய பாணிம் மம பிதா ந நிஷித்தவான் ந நிவாரிதவான் கிந்து இதானீம் அஹம் மம பாதம் தவ சிரசி ஸ்தாபயாமி பவான் சக்கியதே சேத் நிவாரயது இதி ஸ்லோகஸ்ய தாத்பர்யஹ. வியாக்யாம் படாமஹ தேன அமுனா மம பித்ரா மம ஜனகேன துக்கினா சோக ஆகுலிதேன வா அதவா பீருணா காதரேன கதமபி கேனாபி பிரகாரேன द्रुपदतनयपाणिः द्रुपदतनयस्य दृष्टद्युम्नस्य पाणिः करः न निषिद्धः न वारितः अद्य अस्मिन् दिने भुजबलदर्प आत्मायमानस्य भुजयोः बलं भुजबलं तस्य यः दर्पः तेन आत्मायमानस्य फुल्लमानस्य अमतस्य बाहुबलात् अभिमानः अत्यधिकः अस्ति इति तव ते शिरसि मौलौ एषः अयं वामः दक्षिण इतरः चरणः पादः न्यस्यते स्थाप्यते एनम् एतं चरणं वारय निवारय इति तथा कर्तुम् उत्तिष्ठति एवं तथा कर्तुम् उत्तिष्ठति इत्युक्ते अश्वत्थाम पादप्रहारं कर्तुम् उत्तिष्ठति इति अर्थः कृपदुर्योधनौ मिलित्वा वत्स मर्षय मर्षय इति निवारयतः अश्वत्थामं निवारयति कृपदुर्योधनौ दुर्योधनद्वयमपि मिलित्वा मर्षय मर्षय नाम क्षमस्व क्षमस्व अश्वत्थामा चरणप्रहारं नाटयति अश्वत्थामा चरणेन चरणताडनं नाटयति नाम तस्य अभिनयं करोति कर्णः सक्रोधम् उत्थाय खड्गम् आकृष्य अरे दुरात्मन् वाचाट ब्रह्मबन्धो आत्मश्लाघिन् अश्वत्थामा सक्रोधम् उत्थाय कोपेन उत्तिष्ठति खड्गम् आकृष्य खड्गम् आयुधं स्वीकृत्य अरे दुरात्मन् अरे दुष्ट वाचाट यः अधिकं वदति सः वाचाट भवति ब्रह्मबन्धो ब्रह्मबन्धो इति निन्दार्थकत्वेन प्रयुज्यते ब्राह्मणस्य निन्दा क्रियते अनेन ब्रह्मबन्धो इत्यत्र ब्राह्मणनीच इत्यपि अर्थः स्वीक्रियते आत्मश्लाघिन् सर्वदा स्वप्रशंसां करोति आत्मप्रशंसां यः करोति सः आत्मश्लाघिन् इति सम्बुध्य जात्या कामम् अवध्योऽसि शरणं तु इमम् उद्धृतम् अनेन लूनं खड्गेन पतितं द्रक्ष्यसि क्षितौ अत्र कर्णः वदति ब्राह्मणजातित्वात् भवान् न हन्तव्यः ब्राह्मणो न हन्तव्यः इति स्मृतिवाक्यमस्ति अतः भवान् ब्राह्मणः इति कारणेन अहं भवन्तं न मारयामि किन्तु इदानीम् एकं पादम् उद्धृतवान् अस्ति किल एकं चरणम् उद्धृतवान् अस्ति तस्य कर्तनं करोमि अहम् इति कर्णः वदति जात्या कामम् अवध्यः असि त्वं जात्या ब्राह्मणत्वेन ब्राह्मणत्वमस्ति इति कारणेन कामं निश्चयेन अवध्यः असि हन्तव्यः न असि हन्तुं न योग्यः असि ब्राह्मणत्वेन भवान् न मारयितव्यः अस्ति किन्तु इमम् उद्धृतं चरणम् इदानीं यः पादः उत्थापितः दृश्यते तव तं पादम् अनेन खड्गेन एतेन मम आयुधेन लूनं कर्तितं क्षितौ पतितं भूम्यां पतितम् अहमिदानीं कर्तयामि तं पादं सः पादः भूमौ पतति इदानीं भवान् तद् द्रक्ष्यति एव लूनं क्षितौ पतितं चरणं द्रक्ष्यसि कर्तितं तव चरणं तद् भूम्यां पतितं तव चरणम् इदानीं त्वं द्रक्ष्यसि त्वम् अवध्यः असि इति हन्तुं न योग्यः असि इति तस्य कारणं जात्या इति शब्देन उक्तत्वात् जातिः कारण जातिकारणात् अहं भवन्तं न मारयिष्यामि इति कारणम् अत्र जात्या इति उक्तत्वात् अत्र काव्यलिङ्गालङ्कारः भवति व्याख्यां पठामः जात्या ब्राह्मणवंशेन कामं भृशम् अवध्यः अमारणीयः असि इमम् एतम् उद्धृतम् उत्तोलितम् अथवा उत्थापितं चरणं पादं तु अनेन एतेन खड्गेन असिना लूनं छिन्नं क्षितौ भूमौ पतितं च्युतं द्रक्ष्यसि अवलोकयिष्यसि अग्रे अश्वत्थामः अरे मूढ किं नाम जात्या कामम् अवध्योऽहम् इयं सा जातिः परित्यक्ता इति यज्ञोपवीतं छिनत्ति पुनश्च सक्रोधं वदति. किं नाम जात्या कामम् अवध्योऽहम् जातिकारणात् अहम् अवध्यः अस्मि इति वदति किम्? यदि जातिः एव भवन्तं मम जातिः एव भवन्तं मां मारयितुं निवारयति चेत् इयं सा जातिः परित्यक्ता, अहं मम जातिं परित्यक्तवान्. आवयोः इदानीं सामान्यमस्ति, आवयोः समाना स्थितिः अस्ति इति यज्ञोपवीतं छिदति, यज्ञोपवीतं कर्तयति पुनश्च सक्रोधं वदति. अतः अहं जात्या अवध्यः असि त्वम् इति कर्णेन उक्तत्वात् यदि जातिः एव कारणं स्यात्, यदि जातिः मम जातिः ब्राह्मणत्वम् इति मम जातिः एव ब्राह्मणजातिः एव भवन्तं मम मारणात् निवारयति चेत् इदानीम् अहं मम जातिं परित्यजामि, भवान् मां वक्तुं हन्तुं शक्नोति वा इति अर्थः. यज्ञोपवीतं चिनति पुनश्च सक्रोधम्, अद्य मिथ्या प्रतिज्ञः असौ किरीटी क्रियते मया, शस्त्रं गृहाण वा त्यक्त्वा मौलौ वा रचय अञ्जलिम्. शस्त्रं गृहाण वा त्यक्त्वा वा, शस्त्रं गृह्णातु, शस्त्रं गृहीत्वा यदि मया सह युद्धं वा करोतु, नो चेत् शस्त्रं त्यक्त्वा अञ्जलिं वा रचयतु इति वदति. अतः एकं युद्धं करोतु, नो चेत् नमस्कारं करोतु मम. पूर्वं अद्य किरीटी मया मिथ्या प्रतिज्ञः क्रियते, अर्थात् अहम् अद्य भवन्तं मारयामि इति विषयमेव सुन्दरतया अत्र उच्यते. किरीटी अर्जुनः मिथ्या प्रतिज्ञः अद्य क्रियते. अर्जुनस्य प्रतिज्ञा यथा वृथा भविष्यति तथा अहं करोमि इति. अर्जुनस्य प्रतिज्ञा का आसीत् इत्युक्ते अहं कर्णं कुरुक्षेत्रे हनिष्यामि इति अर्जुनस्य प्रतिज्ञा आसीत्. अतः तां प्रतिज्ञाम् अद्य अहं मिथ्यां करोमि, तस्य प्रतिज्ञायाः भङ्गं करोमि, अर्जुनस्य प्रतिज्ञायाः भङ्गं करोमि इत्युक्ते अर्जुनः कर्णं न मारयिष्यति, अहमेव मारयित्वा कर्णं मारयित्वा अर्जुनस्य प्रतिज्ञाम् अहं एतत् करोमि, मिथ्यां करोमि इति. मया अश्वत्थाम्ना अद्य असौ किरीटी, असौ अर्जुनः, सः अर्जुनः मिथ्याप्रतिज्ञः क्रियते. अर्जुनः मिथ्याप्रतिज्ञः क्रियते, अर्जुनस्य प्रतिज्ञायाः भङ्गं कृत्वा अहम् अर्जुनं मिथ्याप्रतिज्ञं करोमि अद्य इति. इतोपि शस्त्रं गृहाण, शस्त्रं स्वीकरोतु वा अथवा त्यक्त्वा वा, शस्त्रं त्यक्त्वा वा मौलौ अञ्जलिं रचय, शिरसि अञ्जलं अञ्जलिः विधीयताम् इति. मौलौ शिरसि अञ्जलिं करोतु. व्याख्यां पठामः. अद्य सम्प्रति असौ एषः किरीटी अर्जुनः मया द्रोणसुतेन मिथ्याप्रतिज्ञः विफलप्रतिज्ञः क्रियते, विधीयते. शस्त्रम् आयुधं गृहाण धारय वा अथवा त्यक्त्वा परित्यज्य मौलौ शिरसि अञ्जलिं प्रणाम अञ्जलिं रचय, विधेहि. ओके, सरलः श्लोकः. अग्रे उभावपि खड्गम् आकृष्य अन्योन्यं प्रहर्तुम् उद्यतौ कृपदुर्योधनौ निवारयतः. उभावपि कर्ण अश्वत्थामानौ द्वौ अपि खड्गं स्वीकृत्य परस्परं ताडयितुं, परस्परं युद्धं कर्तुम् उद्युक्तौ जातौ, सिद्धौ जातौ. तदा कृपः दुर्योधनः च द्वौ अपि निवारयतः. दुर्योधनः सखे आचार्यपुत्र शस्त्रग्रहणे ग्रहणेन अलं, दुर्योधनः अश्वत्थामानं निवारयति. हि आचार्यपुत्र द्रोणपुत्र शस्त्रग्रहणेन अलं, शस्त्रं ग्रहणेन पर्याप्तं, भवान् त्यजतु. कृपः वत्स सूतपुत्र शस्त्रग्रहणेन अलम् कृपाचार्यः कर्णं निवारयति शस्त्रग्रहणेन अलम् इति. अश्वत्थामा मातुल मातुल किं निवारयसि अयमपि तादनिन्दा प्रगल्भः सूत अपसदः दृष्टद्युम्नपक्षपाती एव. मातुल मातुल किं निवारसि किमर्थं मां निवारयसि किमर्थं मां निषेधयति भवान्. अयमपि अयं कर्णः अपि तातनिन्दा प्रगल्भः तात द्रोणाचार्यस्य निन्दा निन्दायां प्रगल्भः अस्ति. पण्डितः प्रगल्भः इत्युक्ते यः अधिकं वदति सः अत्र परिहासं करोति इति. तातनिन्दा प्रगल्भः तातस्य निन्दा निन्दायां सः पण्डितः अस्ति. सूत अपसदः सारथीकुले जातः अधमः अस्ति. दृष्टद्युम्नपक्षपाती एव. एषः तु दृष्टद्युम्नस्य पक्षे पतितवान् अस्ति एषः अपि. कारणं मम तातस्य निन्दां करोति अतः सः प्रतिपक्षी एव. सः प्रतिपक्षे सः पतितवान् अस्ति अतः पक्षिणी एषः अस्ति. परपक्षी अस्ति एषः. दृष्टद्युम्नस्य पक्षपाती अस्ति एषः. तातस्य निन्दां करोति इति कारणात् सः शत्रुपक्षपाती जातः. दृष्टद्युम्नस्य पक्षपाती जातः एषः कर्णः. राजन् न खलु अहं निवारयितव्यः. कर्णः दुर्योधनं वदति, हे राजन् अहं निवारयितव्यः न, अहं निवारयितुं न योग्यः. नाम इदानीं मां न निवारयतु इति अर्थः. ततः पूर्वं दृष्टद्युम्नपक्षपाती एव इति वाक्यम् ERC भवितुमर्हति. अस्तु ओके. न खलु अहं निवारयति वः, अहं निवारयितुं न योग्यः अस्मि, कृपया मां न निवारयतु. एषः तु हन्तव्यः एव अश्वत्थामा इति. उपेक्षितानां मन्दानां वीरसत्त्वैः अवज्ञया अत्रासितानां क्रोधान्तैः भवती एषा विकर्तना. एतादृशी विकर्तना केषां भवति इति वदति. विकर्तना नाम आत्मप्रशंसा. एवम् अश्वत्थामा स्वयम् आत्मानं प्रशंसन् अस्ति. एतादृशी आत्मप्रशंसा कीदृशानां जनानां भवति इत्युक्ते उपेक्षितानां मन्दानाम् अत्रासितानां जनानां भवति. उपेक्षितानाम् अत्रासितानां मन्दानां जनानामेव एषा एतादृशी विकर्तना भवति. एषा विकर्तना एतादृशी आत्मप्रशंसा भवति अतः तादृशाः हन्तव्याः एव इति. उपेक्षितानां कैः उपेक्षिताः इत्युक्ते धीरसत्त्वैः उपेक्षितानां. धीर इत्युक्ते गाम्भीर्यं. गाम्भीर्यमेव यस्य बलम् अस्ति तादृशाः सन्ति. गम्भीरवन्तः जनाः तैः उपेक्षितानां. तैः किमर्थं तैः उपेक्षिताः भवन्ति इत्युक्ते अवज्ञया. अवज्ञा इत्युक्ते अनादरः. अनादरभावनया उपेक्षिताः. धीरसत्त्वाः तैः तेषु आदरं न प्रदर्शयन्ति, उपेक्षां कुर्वन्ति. तादृशाः जनाः एव एतादृशीं प्रशंसां कुर्वन्ति, आत्मप्रशंसां कुर्वन्ति इति वदति. धीरसत्त्वैः अवज्ञया उपेक्षितानां. धीरसत्त्वैः गम्भीरवद्भिः अनादरेण उपेक्षां ये जनाः उपेक्षां कृतवताम् एषा विकर्तना भवति एव. नो चेत् क्रोधान्तैः अत्रासितानां मन्दानां. क्रोधान्तैः कुपितैः. क्रोधान्तः नाम कुपितः. कुपितैः अत्रासितानां भीतरहितानां भयरहितानां भयं विना ये सन्ति तादृशानां मन्दानां एव एषा विकर्तना भवति. एतादृशी आत्मप्रशंसा भवति. मन्दः नाम अत्र अधमः इति अर्थे स्वीक्रियते. मन्दानाम् अत्रासितानाम् अत्रासितानां नाम अदण्डितानां हु आर् नाट् पनिश्ड् इति अर्थः. क्रोधान्तैः येषां दण्डनं न प्राप्तं तादृशानां मन्दानां नीचजनाम् अधमानामेव एतादृशी कथना भवति, अतः एषः दण्डनीयः एव, एषः हन्तव्यः एव, अवश्यम् एतस्य दण्डम् अहं विधास्यामि इति कर्णः वदति. व्याख्यां पठामः. धीरसत्त्वैः गम्भीरहृदयैः क्रोधान्धैः क्रोधेन रोषेण अन्धैः कोपाविष्टैः अत्रासितानाम् अदण्डितानाम् अवज्ञया उपेक्षया उपेक्षितानां तिरस्कृतानां मन्दानां नीचानाम् एषा इयं विकत्थना जल्पना भवति इति. एतस्य अन्वयस्य अपेक्षया एषः अन्वयः सम्यक् भवति. शृण्वन्तु. धीरसत्त्वैः गम्भीरहृदयैः अवज्ञया अनादरेण उपेक्षितानाम् औदासीन्यं प्रापितानां, तद् एकं विशेषणं मन्दानाम् इति पदस्य, धीरसत्त्वैः अवज्ञा उपेक्षितानां मन्दानाम् इति. अन्यत् क्रोधान्धैः अत्रासितानां कुपितैः अप्रापितानां मन्दानाम् एषा विकत्थना भवति इति अन्वयः अस्ति. अग्रे गच्छामः. अश्वत्थाम राजन् मुञ्च मुञ्च एनम् आसादयतु मद्भुजान्तरनिष्पेषसुलभम् असूनाम् अवसादनम्. अन्यच्च राजन् स्नेहेन वा कार्येण वा यत् त्वम् एनम् तात अधिक्षेपकारिणं दुरात्मानं मत्तः परिरक्षितुम् इच्छसि तदुभयमपि व्यर्थमेव ते. अश्वत्थामा दुर्योधनं प्रति वदति, हे राजन् मुञ्च मुञ्च एनम् एनं कर्णं मुञ्च त्यजतु, अहम् एनम् अद्य मारयिष्यामि. स्नेहवशात्वा कार्यवशात्वा तं रक्षितुं प्रयत्नं न करोतु, तद् निश्चयेन व्यर्थमेव भविष्यति इति वदति. मुञ्च मुञ्च एनं कर्णं मुञ्च आसादयतु मद्भुजान्तरनिष्पेषनसुलभम् असूनाम् अवसादनम्. सः कर्णः असूनाम् अवसादनं प्राप्नोतु, असूनां प्राणानाम् अवसादनं प्राप्नोतु, नाम न सः मरणं प्राप्नोतु. कुत्र मरणं प्राप्नोतु? मम भुज अन्तरनिष्पेषनसुलभम् असूनाम् अवसादनं. मम भुज मम भुजयोः अन्तरम्, अन्तरं नाम ग्याप् इत्यर्थः, मम भुजयोः मध्ये निष्पेषनसुलभम् असूनां, निष्पेषणं नाम पीडनं, मम भुजयोः भुजयोः मध्यभागे सः आगच्छतु, मम भुजयोः अन्तरे सः आगच्छतु, अहं तं तस्य निष्पेषणं करामि, निष्पीडनं करोमि, तस्य निष्पीडनं करोमि, तं मर्दयामि अहम्. तद् बहु सुलभमस्ति, तेन तस्य मरणं सम्भवतु इति वदति. असूनाम् अवसादनम्, अवसादनम् इत्युक्ते एण्ड् इति अर्थः. नाम असूनाम् अवसादनम् इत्युक्ते प्राणानाम् एण्ड् नाम मरणम् इति अर्थः. मम अहं भुजाभ्यां तं निष्पीड्य तस्य मरणं कारयामि इति अर्थः. अन्यच्च राजन् आसादयतु इत्युक्ते प्राप्नोतु इति अर्थः. अन्यच्च स्नेहेन वा, स्नेहवशात् वा, स्नेहकारणेन वा, कार्येण वा, कार्यं नाम सः किमपि मम कृते कृतवान्, नो चेत् सः किमपि करिष्यति युद्धे इति कारणेन वा, यत् त्वं एनं भवान् एनं परिरक्षितुम् इच्छसि, भवान् एनं कर्णं परिरक्षितुम् इच्छति चेत् कीदृशं कर्णं? तात अधिक्षेपकारिणं, यः मम तातस्य अधिक्षेपं कृतवान्, तातस्य निन्दां कृतवान्, तात अधिक्षेपकारी अस्ति एषः कर्णः, तादृशं तात अधिक्षेपकारिणं दुरात्मानं दुष्टम् इमं कर्णं मत्तः परिरक्षितुम् इच्छसि. मत्तः नाम मम तः इति अर्थः. मत्तः अस्मत्तः, ममतः इति न आगच्छति, अस्मत्तः इति अर्थः. परिरक्षितुम् इच्छसि, रक्षितुं यदि त्वम् इच्छसि चेत् तदुभयमपि व्यर्थमेव. किम् उभयमपि व्यर्थं? स्नेहं कार्यं, स्नेहः कार्यम् इति उभयमपि व्यर्थमेव. भवान् स्नेहवशात् कार्यवशात् एव तस्य मरणं न सम्भवेत् इति मम निषेधं करोति किल अतः एतद्वयमपि निश्चयेन व्यर्थमेव इति एकं श्लोकम् उक्त्वा तत् समर्थयति. पापप्रियः तव कथं गुणिनः सखा अयं सूत अन्वयः शशधर अन्वयसम्भवस्य हन्ता किरीटिनम् अहं नृप मुञ्च कुर्यां क्रोधात् अकर्णम् अपृथात्मजम् अद्य लोकम्. ततः पूर्वं तदुभयमपि व्यर्थम् इति ईयासि, ससन्दर्भं व्याख्यात इति प्रश्ने भवितुम् अर्हति. कारणं तदुभयमपि किम् इति प्रश्नः, उभयमपि वृथा एव इति वदति. द्वयमपि प्रयोजनहीनम् एव, स्नेहं वा भवतु कार्यं वा भवतु द्वयमपि तव प्रयोजनाय न भवति, व्यर्थमेव इति वदति. तद् किमर्थम् इति, अहमेव तद् कार्यद्वयमपि करोमि, एतस्य आवश्यकता नास्ति इति अनेन श्लोकेन वदति अश्वत्थामा. एतादृशं पापिनं भवान् कथं मित्ररूपेण अङ्गीकृतवान् अस्ति इति पृच्छति. कर्णः पापप्रियः अस्ति, एतादृशः पापप्रियः कथं तव सखा भवितुम् अर्हति? अहं तु मम क्रोधात् लोकम् अकर्णम् अपृथात्मजं कर्तुं शक्नोमि इति वदति. अहं कर्णमपि मारयितुं समर्थः अस्मि, अकर्णं लोकं करोमि, अपृथात्मजम् अर्जुनरहितं लोकमपि अहं कर्तुं शक्नोमि. अतः कर्णं त्यज, द्वयमपि अहं, कर्णमपि अहं मारयामि, अर्जुनमपि अहं मारयामि. भवतः स्नेहेन अपि प्रयोजनं नास्ति, कार्येन अपि प्रयोजनं नास्ति इति वदति. किमर्थं स्नेहेन प्रयोजनं नास्ति इत्युक्ते, एषः पापप्रियः अस्ति कर्णः. पापः प्रियः यस्य सः पापप्रियः. सर्वेषु विषयेषु सः पापप्रियः आसीत् एव. नाम द्रौपद्याः वस्त्र अपहरणसन्दर्भे अपि सः पापम् आचरितवान्, अङ्गीकृतवान् आसीत्. एवं बहुत्र महाभारत पश्यामश्चेत् सः पापप्रियः आसीदेव कर्णः. सूत अन्वयः अपि अस्ति, सः सारथिकुले जातः, सूतकुले जातः अस्ति. अत्र यदा अन्वयः क्रियते श्लोकस्य, तत्र प्रथमाविभक्त्यन्तं पदं पृथक् करणीयं भवति. षष्टिविभक्त्यन्तं पदं पृथक् कुर्मः. अयम् एषः कर्णः कीदृशः? पापप्रियः. पापः प्रियः यस्य सः पापप्रियः. सूत अन्वयः, सूतकुलसम्बन्धः, सूतकुलसम्बन्धीयः, सूतकुले जातः. कथं तव सखा भवति? कथं तव सखा भवितुम् अर्हति? कीदृशस्य तव इति विशेषणद्वयं ददाति. तद् विशेषणद्वयमपि साक्षात् विपरीतं विशेषणम् अस्ति. पश्यन्तु, गुणिनः तव, सः तु पापप्रियः अस्ति, भवान् तु गुणी अस्ति, उत्तमगुणसम्पन्नः अस्ति. अतः पापप्रियः सः, गुणिनः तव सखा कथं भवति इति. कर्णः पापप्रियः, भवान् तु गुणी अस्ति, अतः गुणिनः तव सखा कथं भवति? इतोपि तव इति पदस्य षष्टिविभक्त्यन्तं पदं शशधर अन्वयसम्भवस्य. शशधरः इत्युक्ते चन्द्रः, चन्द्रवंशे जातः अस्ति, चन्द्रवंशे सम्भूतः अस्ति दुर्योधनः. स चन्द्र उत्कृष्टः कुलः अस्ति, सः तु सूत अन्वयः अस्ति, सूतकुले जातः, अतिनीचकुलः अस्ति. एवं सूत अन्वयः एषः शशधर अन्वयः अस्ति, चन्द्र वंशः अस्ति, सः सूतकुले अस्ति, एषः चन्द्रकुले जातः अस्ति इति विपरीतं विशेषणं ददाति. एवं सूत अन्वयः सः कर्णः कथं शशधरसम्भवस्य तव सखा भवितुमर्हति? एवम् अन्वयः एवमपि कर्तुं शक्यते, अयं पापप्रियः गुणिनः तव सखा कथं भविष्यति? अयं सूत अन्वयः शशधर अन्वयसम्भवस्य तव सखा कथं भवितुम् सखा कथं भविष्यति? अस्तु, अग्रे. अहं किरीटिनं हन्ता, अहम् अर्जुनं हन्ता. हन्ता इति पदम् अत्र क्रियापदमस्ति, लुट्टुलकारः इति मन्ये. हन्ता हन्तारौ हन्तारः इति हनिष्यामि इति अर्थः. अहम् अर्जुनं हनिष्यामि. अहं किरीटिनं हन्ता. एनं मुञ्च कर्णं त्यजतु, अद्य क्रोधात् लोकम् अकर्णम् अपृतात्मजं च कुर्याम्। अहम् अद्य कोपात् मम कोपेन लोकम् एतत् भुवनम् अकर्णम् कर्णराहित्यम् अपृतात्मजम् अर्जुनराहित्यम् च करिष्यामि। व्याख्यां पठामः। हे नृप राजन्, गुणिनः गुणवतः शशधर अन्वयसम्भवस्य शशधरस्य चन्द्रस्य अन्वये वंशे सम्भवः उत्पत्तिः यस्य तस्य, तव भवतः पापप्रियः पापं पापकर्मप्रियं रुचिकरं यस्य सः, सूतान्वयः सूतस्य रथकारस्य अन्वयः वंशः यस्य सः, अयम् एषः सखा मित्रं कथम्। अहं द्रोणसुतः किरीटिनम् अर्जुनं हन्ता मारयिता अस्मि। अद्य अस्मिन् दिने क्रोधात् कोपात् लोकं जगत् अकर्णं कर्णरहितम् अपृतात्मजं पृथापुत्र अर्जुनशून्यं च कुर्यां विदध्याम्। अहं द्वयमपि मारयिष्यामि, अर्जुनं कर्णं द्वयमपि मारयिष्यामि, तं त्यजतु इति वदति।